एकोनविंशोऽध्यायः महाबलो नृपो नवद्वारं नगरम् अजगाम। तत्परो गुरुः पद्मनेत्रं दीवं ददर्श तं स्वादुफलवृक्षे वने जिजीवित। स्तेनोल्पधनस्य नरस्यश्वं चोरयं चकार। इवं मह्यं मत्तुरसम् आहारं पेचथुः। कुतो यूयम् एतं सुन्दरफलं वृक्षं लुलुव। असि पाणि नृपो न द्विषो जिघाय। किं तस्मिन् सुन्दरगृहे नगरे नराबभाषिरे। शिवधनु रामेण बिभ्यदे।